सत्तादित्याः श्रीर्वैराष्ट्रमश्वमेधः श्रीयमेवास्मै राष्ट्रमूर्ध्वमुत्क्षयति
अथ चतुर्वेदोक्त आसीर्वचनं देवदेवोत्तमदेवता सार्वभौमा अखिलाण्डकोटि ब्रह्माण्डनायक ऋषिगणवन्द्य सच्चिदानन्दात्मन् ऋग्वेदप्रिय ऋग्वेदसेवाम् अवधारय
अस्य मद्भक्तिवतमादयध्वन् तृप्तायातपतिभिर्देवयानैः सविता पश्चात्तात् सविता पुरस्तात्
यजुर्वेदः
अस्य मद्भक्तिरतमादयध्वं तृप्तायातपतिभिर्देवयानैः सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता धरात्तात् सवितानस्वतु सर्वदा तिं सवितानो रासतां दीर्घमायुः।